विपासामम् महत इन्द्रजाय पिबा व्रत्राय हन्त वेषभिष्ठ पिबराजेशवसे होजमानः पिबमध्वस्त्रपदिन्द्रावृषस्व अस्य पिबक्षुमतः प्रस्थितस्येन्द्रसोमस्य परमासुतस्य स्वस्तिदा मनसा मादयस्वार्वाचीनोरेपते सौभगाय ममत्वत्ता दिव्यः सोम इन्द्र ममत्वजः सोजते पार्थिवेश ममत्वजेन परिपश्चकर्थ ममत्वजेन निर्णासि शत्रून् आद्विपरः अमिनो जात्मिन्द्रो वृषा हरिभ्याम् परिषिक्तमन्धाः गव्यासुदस्य प्रभृतस्य मध्वः सत्राखेदा मरुषः वृषस्व निरिग्मानि भ्राशयन् भ्राश्यान्यवस्थिरातनु हि जातु जोना उग्राजते सहोबलम् ददामि प्रदेत्या शत्रोऽन्विगदेश वृश्च व्या अर्य इन्द्रतनु हि श्रवांस्योजस्थिरे वदन्वनोऽभिमादेः अस्मद्यग्वावृधानः सहोऽभिरनिभ्रष्टस्तन्वम् वावृधस्व इदम् हविरमघवन्तभ्यम् रातिम् प्रति सम्राणहृणानो गृभाय तुभ्यम् सतामघवन्तभ्यम् पक्वो अध्येन्द्रपिबध प्रस्थितस्य अध्येदिन्द्रप्रस्थिते मा हवेम् शचनो दधिष्वपचतो दसोमम् प्रजस्वन्तः प्रतिहर्यामसित्वा सत्याः सन्त्वजमानस्य कामाः प्रेन्द्राग्निभ्याम् सुमतस्यामि जर्मि सिन्धा विपप्रेरजन्नावमर्कैः अजा इव परिचरन्ति देवाजे अस्मभ्यन्धनदा उद्भिदश्च